आकाशवाण्या सञ्चालिते संस्कृत साप्ताहिकीति कार्यक्रमे अहम् पुनीत त्रिपाठी कार्यक्रमस्य उद्घोषकः सर्वेषां श्रोतॄणां हार्दिकं स्वागतं व्याहरामि। आशासे यत् भवन्तः सर्वे अस्मिन् अतितापे वातावरणे स्वीय रक्षणं अवश्यमेव कुर्वन्तः सन्ति, अपि च स्वीय मतदानाधिकारस्य दायित्वं निर्वहन्ति। आगच्छन्तु तावत् कार्यक्रमेऽस्मिन् अग्रेसरामः। अग्रिम प्रभागः प्रसंगो वर्तते। श्रोतारः, भवन्तः जानन्ति किम् यत्र अस्मिन् प्रभागे अद्य शिशुगीतिकाम् उपस्थापयति अस्मदीयः सहयोगी युवराज भट्टराई महोदयः। आगच्छन्तु शृण्मः तावत् प्रसंग प्रभागम् एनम्।
सान्ध्यवेलागता चागता रेनिशा चाम्बरे शोभते सा निशा नायिका स्वप्नलोके प्रयातुम् सुते कल्पके गच्छ गीतिम् श्रुतायै प्रगायामि ते गायनस्मीह कन्ने त्वदीयम् प्रियम् रम्य सङ्गीतकम् भाति ते मञ्जुलम् विष्टरेपे सले गच्छरे पुत्रिके श्रूयताम् स्वप्न गीतिम् प्रगायामि ते।
केचन जनाः अतिव्यस्ततायाः कालकारणात् कदाचित् प्रमादस्य कारणेन वा अन्येषु शब्देषु वदामः चेत् हस्ते दूरभाषकारणेन वार्तया विमुखाः जाताः। अतः तादृशाणां श्रोतॄणां कृते ये देशस्य विदेशस्य च वार्ताविषये जागरूकाः सन्ति तेषां कृते साप्ताहिकी वार्ताः आदाय उपस्थितास्ति सहयोगिनी रिंकू जोशी। शृण्मः तावत् साप्ताहिकी वार्ताः।
लोकसभा निर्वाचनस्य षष्ठम चरणीय मतदानाय प्रचाराभियानं सम्प्रति समाप्तम्। मतदानं च शनिवासरे अभवत्। प्रधानमन्त्रिणा नरेन्द्र मोदिना कलकत्ता उच्च न्यायालयस्य अन्य वंचित वर्गीय प्रमाण पत्राणां निरसनादेशानन्तरं पश्चिम बंगस्य तृणमूल कांग्रेसस्य तुष्टीकरणीय राजनीतेः आलोचना कृतास्ति। ईरान देशस्य राष्ट्रपतिः इब्राहिम राइसी, विदेशमन्त्री हुसैन आमिर अब्दुल्लाहियां च उदग्रयान दुर्घटनायां निहतौ। प्रधानमन्त्रिणा मोदिना च अस्मिन् शोककाले भारतम् ईरानेन सह अस्ति इति उक्तम्। दिल्ल्याः राउज एवेन्यू न्यायालयेन आसवनीति वञ्चनाधन शोधन विषये पूर्व उपमुख्यमन्त्रिणः मनीष सिसोदियायाः न्यायिक निगडनम् मई 31 यावत् अग्रे सारितम्। ईरान देशे राष्ट्रपति निर्वाचनं जून मासस्य 28 दिनांके भविष्यति। पैरा एथलेटिक महिलानां F51 क्लब प्रो इति प्रतिस्पर्धायां भारतस्य क्रीडिका एकताभ्यानः स्वर्ण पदकं समर्जितवती। सचिन सार्जेरावेन च जापान देशे विश्व पैरा एथलेटिक्स चैम्पियन इत्यस्मिन् खेल सम्मर्दे सभार कन्दुक प्रक्षेपण स्पर्धायां स्वर्ण पदकं विजितम्।
अग्रिम प्रभागं प्रति चलामः, यस्य नाम ज्ञान विज्ञानम् इति अस्ति। अद्यतनीयं प्रभागम् अमुम् नीत्वा उपस्थितास्ति सहयोगिनी निधिः तिवारी। तस्याः एव माध्यमेन ज्ञास्यामः अस्माकम् अतिथेः परिचयम्, अपि च तेषां माध्यमेन च अस्याम् ज्ञान विज्ञान स्वरूप गङ्गायाम् निमज्जनम् कुर्मः वयम्।
प्रियाः श्रोतारः, संस्कृत साप्ताहिकी इति कार्यक्रमस्य विशिष्ट विभागे ज्ञान विज्ञान प्रभागे अद्य अस्माभिः साकम् आकाशवाण्याम् साक्षात्काराय विशिष्ट संवादाय च हिमाचल प्रदेश केन्द्रीय विश्वविद्यालये संस्कृत विभागस्य व्याकरण वेद प्राचीन पर्यावरणविदः प्राध्यापकाः डॉक्टर बृहस्पति मिश्र महाभागाः। एतैः विद्वद्भिः सह संवादाय उपस्थितास्मि निधि तिवारी। भवतां हार्दं स्वागतं व्याहरामि महोदय।
नमो नमः। सर्वेभ्य श्रोतृभ्य नमो नमः। तथा च एषा या संस्कृत साप्ताहिकी पत्रिका आकाशवाण्यां प्रचलति तत्र ये अधिकारिणः सन्ति, संयोजकः सन्ति, अन्यच्च प्रवाचकाः सन्ति, तेषां सर्वेषामपि अभिनन्दनम्। पुनश्च निधि तिवारी वर्यायाः अपि अभिनन्दनम्, सा मम कृते एतत् अवसरं कल्पितवती।
अस्तु आचार्य, सम्प्रति भवान् हिमाचलस्य केन्द्रीय विश्वविद्यालये अध्यापयति। अद्यपर्यन्तं कृपया स्वीय यात्रानुभवं कथयन्तु।
संस्कृतमहाविद्यालये 12 वर्षाणि व्याकरणम् अध्याप्य अधुना अहम् हिमाचलप्रदेश केन्द्रीय विश्वविद्यालय धर्मशालास्थ संस्कृत विभागे आचार्यपदे अस्मि। अत्र यदि वार्ता क्रियते नूतन प्रयोगाणां तो एषः तु सामान्य विश्वविद्यालयः अस्ति। पुनश्च अत्र संस्कृत विभागे वयं कार्यालयीय व्यवहारं संस्कृत माध्यमेन संस्कृत विभागस्य भवेत् इति प्रयोगार्थं प्रयासं कुर्वन्तः स्मः। तेन किं भवति यत् छात्राणां कृते ये कार्यालयीय आदेशाः सन्ति ते संस्कृत माध्यमेन भवन्ति, पुनः संस्कृतेनैव तेषाम् अध्यापनं भवति, तेषां परीक्षा संस्कृत माध्यमेन भवति, तेषां या कापि प्रस्तुति सापि संस्कृत माध्यमेन भवति। एवं कृत्वा एषः कश्चन प्रयासः प्रचलति। पुनः नूतन प्रयोगविषये एकः अभिनवः प्रयोगः भवति। स्नातककक्षायां शास्त्री उपाधि निमित्तं राष्ट्रियशिक्षानीतौ अन्य विभागतः अपि कश्चन विषयः पठनीयः भवति। तत्र समाजशास्त्रम् इति एकः विषयः अन्यस्मात् विभागात् पठनीयः अस्ति। तं विषयं संस्कृतमाध्यमेन अध्यापयामः। तां प्रश्नपत्रं संस्कृतमाध्यमेन भवति, छात्रैः संस्कृतमाध्यमेनैव एषः विषयः लेखनीयः भवति। एषः प्रयोगः सम्पूर्ण भारते अस्मिन् विश्वविद्यालये एकः अभिनवः प्रयोगः अस्ति।
आचार्य, मया ज्ञातं यत् भवतां ज्ञानच्छायायां द्वौ शोधच्छात्रौ स्वीय शोधकार्यं सम्पादयन्तौ। एतयोः छात्रयोः एकः छात्रः आकाशवाण्याः एव प्रयुक्तशब्दान् अधिकृत्य शोधकार्यं सम्पादयति। कथमयं विचारः भवता मनसि समागतः? केन प्रकारेण भवता शोधकार्यमिदं निर्दिश्यते?
निधिवर्ये, सम्यक् चिन्त्यते भवत्या। मम शोधनिर्देशने 6 छात्राः वर्तन्ते। तत्र 2 छात्रौ अस्मिन्नेव भाषावैज्ञानिक अध्ययने कार्यरतौ स्तः। एकः भूषणनामधेयः, दूरदर्शने याः वार्ताः आगच्छन्ति तत्र भाषावैज्ञानिकम् अध्ययनं, नूतनशब्दानां पाणिनीय अपाणिनीयचिन्तनम् इत्यादि विषये शोधकार्यं करोति। द्वितीया च शोधछात्रा साक्षी नामधेया, आकाशवाण्यां ये कार्यक्रमाः प्रचलन्ति प्रातः सायं वार्ताः आगच्छन्ति, पुनः एषा संस्कृतसाप्ताहिकी भवति, तत्र ये वृत्तान्ताः आगच्छन्ति, तत्र नूतनशब्दानां निर्माणविषये, पाणिनीय अपाणिनीयविषये, पुनः अन्यत्र तत्र कोशादि चर्चाविषये भाषावैज्ञानिकम् अध्ययनं करोति। उद्देश्यम् एतत् मदीयमस्ति तत्र आसीत् च यत् ये नूतनशब्दानां निर्माणं भवति, यतोहि अद्यत्वे संस्कृतं सम्भाषणस्य एका भाषा जायमाना अस्ति, संस्कृतेनैव समाचाराः भवन्ति दूरदर्शने च आकाशवाण्यां च, पुनश्च सामाजिकक्षेत्रेषु सामाजिकस्थलेषु यूट्यूब् आदिषु, तो तत्र यदा नूतनाः विषयाः आगच्छन्ति तेषां कृते नूतनशब्दानां निर्माणम् आवश्यकं भवति। तत्र ते शब्दाः पाणिनीयपरिधौ एव निर्मिताः स्युः, व्याकरण अनुसारं सिद्धाः स्युः, तद् अस्ति वा नास्ति वा इति एकं विश्लेषणं भवेत्। पुनश्च अपरविषयः ये अग्रे समाचारान् अनुवादीकृत्य पुनः तत्र पठन्ति वाचनं कुर्वन्ति तेषां कृते साहाय्यमपि भवेत्। वयं नूतनानां शब्दानां कृते एकां शब्दावलिं रचयाम, तदर्थमपि एषः कश्चन सामाजिक उपयोगः भवितुम् अर्हति इति धिया मया एषः विषयः चितः। यत् भाषावैज्ञानिकम् अध्ययनं भवेत् कथं कृत्वा प्रचलति, पुनः तत्र एतद् शोध विषयम् अधीत्य ये प्रवाचकाः सन्ति ते किञ्चित् प्रेरिता भवेयुः, उत्साहिता भवेयुः, पुनश्च शब्दावली यदि निर्मिता भवति तेषां किञ्चित् साहाय्यमपि भवेत् इत्येव अस्ति।
अतीव शोभनम् आचार्य। तृतीयः प्रश्नो अयं विद्यते यत् पर्यावरण संरक्षणे वेदाः कथम् उपयोगिनः सन्ति? किं वैदिकग्रन्थेषु पर्यावरण संरक्षण विषये लिखिताः सन्ति? यतोहि आधुनिक समये ग्लोबल् वार्मिङ्ग् सदृशां समस्यां सम्मुखीकुर्मः वयम्, तावत् अस्मिन् क्रमे पर्यावरण संरक्षणम् अति आवश्यकं वर्तते। कृपया प्रतिपादयन्तु।
मान्ये बहु उत्तमः प्रश्नः भवत्या अस्मिन् प्रासंगिके समये उत्थापितः। वैदिकग्रन्थेषु प्रारम्भत एव प्रकृत्या सह अन्योन्याश्रयभावः, सह अस्तित्वजीवनम् इत्यादयः सिद्धान्ताः घोषिताः। ऋषिभिः तु एकः अन्योऽपि उपायः उद्घोषितः यत् ये अस्माकं निर्माणं कुर्वन्ति, अस्माकं पोषणं कुर्वन्ति, तेषु सर्वेषु देवत्वभावना करणीया। देवत्वभावना करणेन तेषां दूषणं दुष्करं भवति, यतो हि मानवः तु भावनाप्रधानः भवति। यस्मिन् तस्य भावना भवति तस्मिन् सः प्रदूषणं वा हानिं वा न कर्तुम् इच्छति। अत एव प्रकृति माता अस्ति, भूमि माता अस्ति, वृक्षः देवः अस्ति, पुनश्च गौ माता अस्ति, एते सर्वे ये श्रेष्ठकराः विषयाः सन्ति तत्र सर्वत्र देवत्वभावना स्थापिता अस्ति। अत एव पश्यन्तु बहु प्रसिद्धः शान्तिपाठमन्त्रः, तत्र एतेषु एते ये प्राकृतिकद्रव्याणि सन्ति तेषु सर्वेषु शान्तिभावः स्थापनीयः। शान्तिभावः नाम अर्थात् यदि एते शान्तिकराः सन्ति चेत् अस्माकं जीवनमपि शान्तमयं भवति। यदि वयं सिद्धान्तदृष्ट्या पश्यामः चेत् एषा यः भूमण्डलीयता, एतद् यद् भूमण्डलीयतापवर्धनं जायमानमस्ति, तत्र प्रथमतया तु अस्माभिः निदानपरिवर्जनम् इति सिद्धान्तः पालनीयः, अर्थात् केन कारणेन तापवर्धनं जायमानमस्ति। पुनः तद् परिवीक्ष्य प्रक्षालनात् हि पङ्कस्य दूरात् अस्पर्शनं वरम् इति सिद्धान्तम् अनुसृत्य येन येन कारणेन भूमण्डलीयतापवर्धनं जायमानमस्ति तत्तत् कारणं त्यक्तव्यम्। यदि तथाविधम् अस्ति यत् तानि कारणानि त्यक्तुं न शक्यन्ते चेत् वैकल्पिकं साधनं द्रष्टव्यम्। यथा अद्यत्वे तत्र ऊर्जा उद्योगादिकारणेन महती आवश्यकी अस्ति, तत्र यथा परमाणु ऊर्जा इत्यादि, तेन महती पर्यावरणहानि भवति, प्रदूषणं भवति, तद् अपसार्य अधुना वैकल्पिकी ऊर्जा या अस्ति यथा पवनोर्जा, सौर्य ऊर्जा एवम् ऊर्जा या अस्ति तस्याः अन्वेषणं जायमानम् अस्ति। तेन या शक्ति उत्पन्ना भवति तेनैव अद्यत्वे औद्योगिककार्याणि यदि करिष्यामः चेत् एतद् यद् भूमण्डलीयतापवर्धनं जायमानमस्ति, वर्धनं भवति, तेन या समस्या उत्पन्ना भवन्ति तेषामपि निराकरणं सरलं भवति। तो एवं दृष्ट्या वयं पश्यामः यत् ऋषीणां या दृष्टिः आसीत् सर्वत्र देवत्वभावः भवेत्, पुनः अपरिहार्यतया यत्र आवश्यकं तत्र सरलाः उपायाः द्रष्टव्याः। यदि वयम् एवं करिष्यामः चेत् पर्यावरण प्रदूषणकारणेन समाजे याः हानयः जायमानाः सन्ति ताः न्यूनाः भविष्यन्ति, अस्माकं जीवनं च पुनः संस्कृत आधारेण वेदानुसार आचरणेन सरलं भविष्यति, शान्तमयं भविष्यति, सुखमयं भविष्यति इति।
अस्तु आचार्य, भवता आकाशवाण्यै प्रकल्पिताय बहुमूल्य अवधये च धन्यता वचांसि समर्पयामि। नमो नमः।
नमो नमः।
धन्यवादः महोदय भवता प्रकल्पितस्य बहुमूल्य समयस्य ज्ञानस्य च कृते। अग्रिमः खण्डः अस्माकं सहयोगिनया साधना शर्मणा प्रस्तूयते। अग्रिमे खण्डे सा संस्कृत विषयेषु अथवा संस्कृत ग्रन्थेषु विभिन्नेषु स्थानेषु आयोजितानां गोष्ठीनां विषये किञ्चित् सूक्ष्मां सूचनाम् आनयति। अस्मिन् खण्डे साधना शर्मा संस्कृत दिग्दर्शन प्रभागम् उपस्थापयति।
हिन्दू यूनिवर्सिटीज ऑफ अमेरिका इत्यत्र इंटरनेशनल हिन्दू यूनिवर्सिटीज इत्यत्र च हिन्दू स्टडीज अध्ययनरतानां छात्राणां संख्या वर्धिता। हावर्ड, येल, एमआईटी, ब्राउन, कोलंबिया विश्वविद्यालयेषु च द्विवर्षपूर्व हिन्दू स्टडीज पाठ्यक्रमः प्रारब्धः। केन्द्रीय संस्कृत विश्वविद्यालयस्य छात्राः हिमालये संस्कृत ध्वजारोहणाय पर्वतारोहणं कृतवन्तः। अस्यैव विश्वविद्यालयस्य श्रीरघुनाथ कीर्ति परिसरे न्यायस्य, श्रृंगेरी परिसरे वेदान्तस्य, जयपुर परिसरे च व्याकरणस्य प्रशिक्षणम् आयोजितम्। अनेन विश्वविद्यालयेन आपराधिक प्रकरणेषु जागरण कार्यक्रमः कृतः। बिहार राज्य विश्वविद्यालय सेवा आयोगेन सहायक आचार्य पदाय संस्कृत साहित्य विषये साक्षात्कारस्य कृते अर्हाणाम् आवेदकानां सूची प्रसारिता। ब्रजभूषण संस्कृत महाविद्यालयेन राष्ट्रिय सेवा योजनान्तर्गतं सप्त दिवसीय विशेष शिविर आयोजित। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये विद्यावारिधि प्रवेश परीक्षायाः कृते पञ्च जून दिनांकं यावत् आवेदनं कर्तुं शक्यते। अत्र शिक्षाशास्त्री उपशास्त्री आचार्य कक्षाभ्यश्च नामांकनं जायते। उज्जैनस्थ महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालये प्रवेश परीक्षा प्रारब्धा, अपि च श्री एक रसानन्द आदर्श संस्कृत महाविद्यालये प्रवेशः प्रारब्धः। इन्दौरस्थ शासकीय संस्कृत महाविद्यालयेन आयोजितं, मध्य प्रदेश उच्च शिक्षा विभागेन च प्रायोजितं भारतीय ज्ञान परम्परा के विविध सन्दर्भ विषयकम् एकदिवसीयं राष्ट्रिय अन्तर्जालिकं सम्मेलनम्। सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य विकास समित्या संवत्सर व्यापी चतुर्वेद स्वाहाकार विश्व कल्याण महायज्ञ आचर्यते। केन्द्रीय संस्कृत विश्वविद्यालयस्य मुम्बई परिसरे निदेशक पदे प्रोफेसर गोविन्द पाण्डेयः, अपि च कार्यकारिणी परिषदि प्रोफेसर वाई एस रमेशः जातः। तिरुपतिस्थ राष्ट्रिय संस्कृत विश्वविद्यालये मालवीय मिशन शिक्षक प्रशिक्षण केन्द्रस्य अन्तर्गतः अष्ट दिवसीय राष्ट्रिय शिक्षा नीति विषयकः कार्यक्रमः प्रचलिष्यति। विश्वविद्यालय अनुदान आयोगस्य सचिवः प्रोफेसर मनीष जोशी केन्द्रीय संस्कृत विश्वविद्यालयस्य रघुनाथ कीर्ति परिसरे हेमवती नन्दन बहुगुणा गढ़वाल विश्वविद्यालयस्य च परिसराणां भ्रमणं कृत्वा व्यवस्थाः परीक्षितवान्। ऑल इंडिया कॉन्फ्रेंस इत्यत्र पंजीकरणं प्रारब्धम्। बुद्ध पूर्णिमावसरे कविकुलगुरु कालिदास संस्कृत विश्वविद्यालयस्य कुलपतिना प्रोफेसर हरेराम त्रिपाठिना, श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य च कुलपतिना प्रोफेसर मुरली मनोहर पाठकेन प्रदत्ता।
अधुना अग्रिम खण्डस्य समयो विद्यते, अर्थात् बालानां कृते पूर्णतया समर्पितस्य बालवल्लरीति प्रभागस्य। अद्य अस्माकं संस्कृत प्रेमी बालकानां कृते किं विशिष्टम् अस्ति इति ज्ञास्यामः। चलामस्तावत् निधिझां प्रति।
मदीयाः प्रियाः बालाः, अद्य अहम् एकं बालगीतं श्रावयामि। मा वद मिथ्यां, मा वद व्यर्थम्, न चल कुमार्गे न कुरु अनर्थम्। मा वद मिथ्यां, मा वद व्यर्थम्, न चल कुमार्गे न कुरु अनर्थम्। पाहि अनाथम् पालय दीनम्, लालय जननी जनक विहीनम्। पाहि अनाथम् पालय दीनम्, लालय जननी जनक विहीनम्।
प्रियाः श्रोतारः, वयं सर्वे भारतीयाः स्मः, अपि च एताम् एकतां च केषाञ्चन भाषितवाक्यानाम् आधारं निर्मीय सुषमा कुमारी उपस्थितास्ति एक भारत श्रेष्ठ भारत नामकं खण्डं गृहीत्वा। आगच्छन्तु वयं विभिन्न भाषासु कानिचन नवीन वाक्यानि शिक्षेम। आशासे यद् भवन्तः एक भारत श्रेष्ठ भारत खण्डात् न्यूनातिन्यूनम् एकं वाक्यं तु अवश्यमेव ज्ञातवन्तः।
प्रथमं वाक्यमस्ति, भारतदेशस्य दक्षिणभागे केरल प्रदेशो विराजते। भारतदेश के दक्षिण भाग में केरल राज्य विराजमान है। हरियाणवी में भारत के दक्षिण में केरल पड़ा है। द्वितीयं वाक्यमस्ति, अस्य प्रदेशस्य राजधानी तिरुवनंतपुरम अस्ति। इस प्रदेश की राजधानी तिरुवनंतपुरम है, हरियाणवी में, जिसकी राजधानी तिरुवनंतपुरम है। तृतीयं वाक्यमस्ति, अस्य पश्चिम भागे अरब सागर स्थितोस्ति। इसके पश्चिम भाग में अरब सागर है, हरियाणवी में, इसके पश्चिम में अरब सागर पड़ा है।
प्रियाः श्रोतारः, सम्प्रति गमन वेला समागतास्ति। अवसानावधौ अहम् अनुरुन्धे यत् भवन्तः सर्वे आज्ञापयन्तु। सर्वैः निःसङ्कोचेनैव निज विचारान् अस्माकम् ईमेल संकेते nhdsanskrit@gmail.com इत्यत्र प्रेषयन्तु। पुनर्मिलामः, तावत् नमो नमः। जयतु संस्कृतम्, जयतु भारतम्।